सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र प्रतिनियतग्राह्याः गुणाः इति. एतत् किञ्चित् पठितवन्तः गतवर्गे, किन्तु पुनः आरभ्य पठामः. अस्तु तर्हि तत्र धनश्री भगिनी आरम्भं करोति वा भगिनि?
आं महोदय. रूपं, रसः, गन्धः, स्पर्शः, शब्दश्चेति गुणाः प्रतिनियतग्राह्याः इति शास्त्रे व्यवह्रियन्ते. तेषाम् एकैकस्य एकैकमेव इन्द्रियस्य ग्राहकं वक्ष्यमाण प्रत्यक्षात्मकज्ञानजनकम्. अन्येऽपि सुखदुःखाय सुखदुःखादयः ये आत्मविशेषगुणाः, तेषां प्रत्यक्षजनकत्वेन मनः इति अतिरिक्तम् इन्द्रियम् अनुमीयते.
इति तावत् अस्तु.
अत्र रूपरसगन्धस्पर्शशब्दः एते गुणाः सन्ति प्रतिनियतग्राह्याः इति शास्त्रे तेषां कृते संज्ञा अस्ति. ते प्रतिनियतग्राह्याः इति कथ्यन्ते. तेषाम् एकैकस्य एकैकम् एव इन्द्रियं ग्राहकम् नाम प्रत्येकं प्रत्येकस्य गुणस्य कृते एकैक इन्द्रियम् अस्ति. वक्ष्यमाण प्रत्यक्षात्मकज्ञानजनकं नाम रूपस्य ज्ञानजनकं चक्षोः भवति, रसस्य ज्ञानजनकं रसनया भवति. तादृशं
रसनेन्द्रिये समीचीनम्. एकैकम् एव इन्द्रियं ग्राहकं नाम प्रत्येकगुणस्य प्रत्येकगुणस्य एकमेव इन्द्रियम् अस्ति, यत् इन्द्रियं गृह्णाति, तं गुणं गृह्णाति,
तस्य ग्रहणं करोति. अन्येपि सुखदुःखम् आदयः ये आत्मविशेषगुणाः, तेषां प्रत्यक्षजनकत्वेन मनः इति अतिरिक्त इन्द्रियम् अनुमीयते. नाम सुखदुःख तस्य ग्रहणं कथं भवति, तस्य कृते मनः इति अतिरिक्तम् इन्द्रियम् अनुमीयते. मनसा तस्य सुखदुःखस्य ग्रहणं भवति.
अतः तत्र एकम् एकैकमेव इन्द्रियं ग्राहकम्, एकैकस्य एकैकमेव इन्द्रियं ग्राहकम् इति एव तत्र प्रतिनियतग्राह्यः गुणः इति. प्रतिनियतग्राह्याः इत्युक्ते किं? तत्र एकैकस्य गुणस्य एकैकमेव इन्द्रियं ग्राहकम् अस्ति इति. समीचीनम्. अपि तत्र वक्ष्यमाणप्रत्यक्षात्मकज्ञानजनकं नाम तत्र ग्राहकं नाम तस्य ज्ञानं ददाति खलु, तत्र ज्ञानं जनयति, तत्र गुणस्य ज्ञानम् एतत् इन्द्रियं जनयति. अतः तत्र इन्द्रिये तत्र जनक तत्र इन्द्रियं जनकमस्ति, ज्ञानस्य जनकमस्ति खलु, यतोहि इन्द्रियेण ज्ञानं भवति. हा, गुणस्य ज्ञानम् इन्द्रियेण भवति इति कृत्वा इन्द्रियं ज्ञानजनकं भवति, ज्ञानजनकं भवति. अपि कीदृशज्ञानजनकम् इत्युक्ते तत्र कीदृशज्ञानम् इत्युक्ते तत्र अग्रे एतत् पश्यामः नाम तत्र प्रत्यक्षं ज्ञानमिति अस्ति, अनुमानम्, उपमानम्, अपि शाब्दबोधम् इति तत्र चतुर्विधज्ञानम् अस्ति न्यायशास्त्रे. अत्र प्रत्यक्षं ज्ञानं जनयति इति. तत्र प्रथमविधज्ञानम् इन्द्रियेण भवति. तत्र प्रत्यक्षज्ञानम् इति एतावत् वयं न चर्चितवन्तः. अतः वक्ष्यमाण प्रत्यक्षात्मकज्ञानं यदस्ति तं जनयति एतत् इन्द्रियम्. अपि तदनन्तरं तत्र अन्येपि सुखदुःखादयः इति. तत्र गुणाः तु चतुर्विंशतिगुणाः सन्ति. तेषु तत्र सुखदुःखादयः अपि सन्ति. ये सुखदुःखः सुख अपि दुःखः तत्र गुणः अस्ति कृत्वा तत्र द्रव्ये भवेत् खलु, यः कोऽपि गुणः भवतु तस्य आश्रयः तु द्रव्यम्. हा अतः सुख दुःखः इति गुणः तेषाम् आश्रयः कः इत्युक्ते तत्र आत्मा एव आश्रयः. अतः तत्र सुखदुःखादयः आत्मविशेषगुणाः सन्ति. अतः तत्र तेषां प्रत्यक्षजनकत्वं तत्र वयम् अस्माकं ज्ञानं भवति खलु, तत्र अहं सुखम् अनुभवामि, अहं दुःखम् अनुभवामि इति तत्र प्रत्यक्षज्ञानं भवति खलु, ज्ञानं भवति. केन भवति तर्हि?
मनसा भवति.
अतः मनः इति अतः मनः इति इन्द्रियम् अपि भवेत् येन आत्मविशेषगुणस्य ज्ञानम् अस्माकं भवेत् इति कृत्वा तत्र मनः इति अस्ति इन्द्रियम् अपि. एतत् इन्द्रियं तत्र सुखदुःखस्य ज्ञानं तत्र चक्षुषा भवति वा? रसनेन्द्रियेण न. अतः तत्र
विहाय कश्चन अन्धेन्द्रिय कल्प्यते.
इन्द्रियम् अस्ति. अतः तत्र अतिरिक्तम् इन्द्रियं नाम यत् पञ्च इन्द्रियेषु न सन्ति किन्तु पञ्च इन्द्रियेषु न सन्ति किन्तु अन्यत् अस्ति. अतः तत्र मन इति अतिरिक्तम् इन्द्रियम् अनुमीयते. इदानीं तत्र नाम तत्र द्वितीयविध तत्र अनुमानज्ञानेन एव तत्र मनः अस्ति इति, मनः अस्ति इति प्रत्यक्षज्ञानं न भवति किन्तु अनुमानेन भवति इति अग्रे पश्यामः. किन्तु तत्र मनः इति अतिरिक्तम् इन्द्रियम् अस्ति. अतः तत्र षड् इन्द्रियाणि सन्ति. अस्तु, समीचीनं, धन्यवादः भगिनी. अस्तु, अग्रे प्रेमलता भगिनी अग्रे पठति वा?
आं महोदय, पठामि.
तत्र चित्रे किं तत्र चित्रे किं
अत्र चित्रम् अत्र अस्ति. प्रतिनियतग्राह्यगुणाः तद्ग्राहकाणि इन्द्रियाणि इति शीर्षिका दत्तमस्ति चित्रस्य. तत् वामस्तम्भे एतत् गुणाः पञ्चगुण षड्गुणाः दर्शयति. दक्षिणस्तम्भे गुणस्य आश्रयः गुण आश्रयः इन्द्रियाणि तत् ग्राहकानि इन्द्रियाणि पट्टिका दत्तमस्ति. एकगुणः रूपमस्ति. तत् चक्षुषा भवति. रूपग्राहकं चक्षुषा भवति इति
तत्र रूपस्य ग्राहकं चक्षुषा भवति. रसनेन्द्रियेण भवति वा रूपस्य ग्रहणं?
न भवति. रसनेन्द्रियेण न भवति. पूर्वमेव दत्तमस्ति एकैकस्य गुणः एकैकस्य इन्द्रियम् इन्द्रियेण ग्रहणं भवति.
ग्रहणं भवति. अतः तत्र रूपं केवलं चक्षुषा
चक्षुषा एव भवति.
चक्षुषा रूपस्य ज्ञानं चक्षुषा केवलं चक्षुषा भवति.
रसन रसग्राहक इन्द्रियं रसनमस्ति. रसग्राहकं रसनेन्द्रियेण एव भवति इति.
समीचीनं.
अन्यत् अन्य इन्द्रियेण न भवति
इति.
गन्ध गन्धग्राहकं इन्द्रियं घ्राणमस्ति. घ्राणं गन्धस्य ग्राहकं भवति. गन्धस्य एव ग्राहकं भवति, न अन्यस्य इति.
न गन्धः केवलं घ्राणेन्द्रियेण एव भवति.
घ्राणेन्द्रियेण भवति.
घ्राणेन्द्रियेण एव इति
एव भवति, न अन्य इन्द्रियेण इति.
समीचीनं.
स्पर्श स्पर्श इति गुण स्पर्श स्वर्श इति गुण स्पर्श अपि गुण अस्ति तद् तस्य ग्राहकं त्वगिन्द्रियेण भवति इति
तस्य ग्राहकं त्वगिन्द्रियं ग्राहकं
भवति
त्वगिन्द्रियम् अथवा तस्य ज्ञानं त्वचा
त्वचा भवति
त्वचा इन्द्रियेण भवति समीचीनं अग्रे
अग्रे शब्द इति गुणः तस्य ग्राहकम् इन्द्रियं श्रोत्रमस्ति
केवलं श्रोत्रमस्ति श्रोत्रमेव
अस्ति श्रोत्रमेव अस्ति श्रोत्रेण एव भवति शब्दग्राहकम्
इति समीचीनं
शब्दस्य ग्रहणम् इति
केवलं श्रोत्रेन्द्रियेण एव
श्रोत्रेण एव भवति इति
अस्तु अन्तिमम्
अन्तिमं षट् ज्ञानाद्यात्मगुणाः
नाम ज्ञानादि
ज्ञानादि आत्मगुणाः
तत्र ज्ञानम् इत्युक्ते तत्र समीचीनं भगिनि बुद्धि बुद्धि
बुद्धि सुख दुःख सुख इच्छा द्वेष
प्रयत्न
प्रयत्न इति षट् गुणाः आत्मनि आत्मगुणाः
तेषाम् आश्रयः तेषाम् आश्रयः आत्मा अस्ति
आत्मा अस्ति तत् मनसा एव
तेषां ज्ञानं
मनसा भवति
ग्रहणम् अत्र सर्वत्र ग्रहणं नाम ज्ञानजनकं प्रत्यक्षज्ञानजनकम् इति तत्र ग्राहकेन वयं सूचयामः ग्राहकं नाम प्रत्यक्षज्ञानजनकम् अतः तत्र एतेषां गुणानां प्रत्यक्षज्ञानम् एतैः इन्द्रियैः भवति एकं गुणम् एकेन इन्द्रियेण एव
भवति
तत्र एकेन इन्द्रियेण एव तस्य ज्ञानं भवति अस्तु समीचीनं अस्तु अग्रे तत्र एकं प्रथमवाक्यं पठतु भगिनि
तथा च पूर्वोक्तगुणानां ग्राहकाणि क्रमेण चक्षुरसग्राण त्वक् श्रोत्राणि मनश्च षष्टमिति आहत्य षडिन्द्रियाणि पूर्वोक्तरीत्या ये पट्टिकायां दत्तमस्ति षट् मन अपि ये पञ्चेन्द्रियाणि दत्तमस्ति तत्परं मन अपि दत्तमस्ति मिलित्वा षड् इन्द्रियाणि भवति गुणग्राहक इन्द्रियाणि इति
षड् इन्द्रियाणि इदानीं विषयः अस्ति
विषयः अस्ति आदिमानि पञ्च बहिरिन्द्रियाणि बहिर्भूतान् षडाद्येन् प्रकाशयन्ति आदिमदत्तय पञ्च इन्द्रियं रूपरसगन्धस्पर्शशब्द इति गुणान् एतद् पञ्चगुणान् एतद् एकैकस्य एकैक इन्द्रियम् इन्द्रियस्य ज्ञानजनकं भवति इन्द्रियज्ञानजनकं भवति तद् तत् बहिर्भूतानि घटादीन् इति प्रकाशयन्ति इत्युक्ते तद् बहिरिन्द्रियाणि इति तस्य कथ्यते
किन्तु किमर्थं बहिरिन्द्रियम् इति कथ्यते आदिमानि पञ्च इन्द्रियाणि
बहिर्भूतानि पदार्थानि प्रत्यक्षं करोति
बहिर्लोके ये पदार्थाः सन्ति तेषां ज्ञानं जनयति प्रत्यक्षज्ञानं जनयति अतः बहिरिन्द्रियम् इति तेषां नामकरणम् आदिमानि पञ्च बहिरिन्द्रियाणि पञ्च इन्द्रियाणि अस्तु अग्रे
आभ्यन्तरं भवति मनः आत्मानं तद्गतगुणान् च प्रकाशयति मन अभ्यन्तरे बहिर्न भवति मनः तद् आत्मानम् आत्मगतगुणान् ये षड्गुणाः ये सन्ति तत् मनसा प्रकाशनं भवति
नाम मनः इति इन्द्रियम् एतदिन्द्रियं बहिरिन्द्रियं नास्ति, आभ्यन्तरम् इन्द्रियम् इति तस्य कथनं, यतोहि बहिर् तत्र मनसा तत्र आत्मनः ज्ञानं भवति, अपि आत्मने ये गुणाः सन्ति तत्र षड्गुणाः इति उक्तं, तेषाम् अपि प्रत्यक्षज्ञानं भवति, अतः तत्र मनः इति मनसा, अतः आभ्यन्तरम् इन्द्रियम् इति मनसः नामकरणम्. आभ्यन्तर इन्द्रियम् इत्युक्ते मनः, बहिरिन्द्रियाणि इत्युक्ते पञ्च
इन्द्रियाणि.
समीचीनं भगिनि, हा धन्यवादः. इदानीं तत्र लघुविषयद्वयमस्ति, तत्र एकमस्ति तत्र तत्र परिच्छेदे तथा च पूर्वोक्तगुणानां ग्राहकाणि क्रमेण चक्षुरसनघ्राणत्वक् श्रोत्राणि इति. तत्र किमर्थं चक्षु इति दीर्घ उकारः अस्ति तत्र? किं
चक्षुद्वयमस्ति न?
हा, किन्तु तत्र श्रोत्रम् अस्तु, तत्र तद् नास्ति, द्विवचनमिति नास्ति तत्र. तत्र प्रातिपदिकं किमस्ति चक्षु इति शब्दस्य? चक्षुष. हा, चक्षुषः तत्र खलु चक्षुष, तदनन्तरं तत्र किं भवति चक्षुष, तदनन्तरं तत्र रकारेपः अस्ति, तत्र किं भवति चक्षुषः? हा, तत्र कोऽपि वदति वा तत्र सन्धिकार्यं भवति तत्र, कोऽपि जानाति वा? नो चेत् त्यजामः तत्र. किन्तु तत्र सन्धिकार्यं भूत्वा तत्र चक्षुः इति प्रायश तत्र विसर्गसन्धि इति मन्ये तत्र.
ससदृशोरुः इति भवति, ऋत्वं भवति, तदनन्तरं
समीचीनं भगिनि. तत्र रकारस्य
करवसानयो विसर्जनीयः इति सूत्रेण ऋत्वस्य विसर्जनीय तत्र विसर्गः भवति तत्र.
तत्र हा, तत्र अपि तत्र ऋकारस्य प्रथमऋकारस्य रेपस्य लोपः भवति, अपि तस्मात् प्राक् यः स्वरः अस्ति तस्य दीर्घत्वं भवति इति कोऽपि नियमः अस्ति, कोऽपि सम्यक्तया स्मरति वा? किन्तु तत्र एतद् दीर्घत्वं तत्र विसर्गसन्धिकार्येण आगतमस्ति तत्र चक्षुर् इति. अस्तु, अन्यत् अस्ति, हा, अपि अन्यः विषयः अत्र लघुविषयः अस्ति, अत्र तत्र फुट् नोट् अस्ति, तत्र फुट् नोट् जयलक्ष्मी भगिनी फुट् नोट् पठति वा भगिनि?
आं महोदय. सर्वत्र प्राणि अङ्गत्वात् एकवत् भावः प्राप्तः, परन्तु घ्राणाभिः घ्राणभिन्नानां संयुक्त द्रव्यत्वात् अवयवत्व अवयवत्व अभावः घ्राणरसनचक्षुत्व चक्षुत्वक् श्रोत्राणि इन्द्रियाणि भूतेभ्यः इति न्यायसूत्रात् उन्नीतः सौकर्याय आदृतः.
तत्र नाम तत्र किमर्थं तत्र अत्र केवलं तत्र सूत्रं न्यायसूत्रं तत्र उदाहरणमस्ति, नाम तत्र घ्राणरसनचक्षुत्वक् श्रोत्र इन्द्रियाणि भूतेभ्यः इति अस्ति. तत्र एतत् पदं समस्तपदमस्ति खलु, चक्षुर्रसनघ्राणत्वक् श्रोत्राणि इति समस्तपदमस्ति खलु भगिनि? नाम तत्र तस्य पदस्य निर्माणं तत्र
घ्राणः च रसनः च चक्षुः च इति द्वन्द्वसमासः कृत्वा
द्वन्द्वसमासः इदानीं तत्र द्वन्द्वसमासस्य द्वैविध्यम् अस्ति खलु
हा इतरेतर द्वन्द्वः अस्ति अत्र
इतरेतर द्वन्द्वः अस्ति किमर्थम् इति तत्र इतरेतर द्वन्द्वसमासः भवेत् तत्र नियमः अस्ति इतरेतर न तत्र इतरेतर इति चिन्तयामः यतोहि तत्र बहुवचने अस्ति इति खलु
सत्यं
हा तत्र रामलक्ष्मणौ रामलक्ष्मणौ लक्ष्मणः च रामलक्ष्मणौ इति चिन्तयामः अतः तत्र इतरेतर इति किन्तु नियमः अस्ति तत्र तत्र यत्र देहस्य अङ्गाः अथवा अवयवाः सन्ति तत्र
समासः
तत्र सर्वदा नपुंसकलिङ्गे भवेत् इति नपुंसकलिङ्गे एकवचने भवेत् इति अस्ति किन्तु अतः तत्र अन्तिम तत्र अन्ते श्रोत्रम् इति भवेत् किन्तु श्रोत्राणि इति एव स्वीकृतम् किमर्थम् इति अत्र दत्तमस्ति नाम प्राणि अङ्गाः नाम प्राणिनः अङ्गाः सन्ति अतः तत्र एकवद्भावः प्राप्तः नाम तत्र श्रोत्रम् इति एव भवेत् चक्षुरसनघ्राणत्वक् श्रोत्रम् इति त्वक् श्रोत्रम् इति एव भवेत् किन्तु श्रोत्राणि इति अपि सन्ति यतोहि अतः तत्र द्वितीयवाक्यं पठतु भगिनि परन्तु
घ्राणभिन्नानां संयुक्तद्रव्यत्वात् अवयवत्व अभावः घ्राणरस
तत्र घ्राण इति इन्द्रियं तत्र
इदानीं तत् द्रव्यत्वमपि तस्मिन् अस्ति इति कारणेन घ्राण संयुक्तद्रव्यत्वात्
संयुक्तद्रव्यं नाम तत्र वयं पूर्वं दृष्टवन्तः तत्र पृथ्वी इति पदार्थस्य त्रैविध्यम् अस्ति किमस्ति शरीरं
इन्द्रियं विषयः इति त्रिविधः
अतः तत्र अत्र दत्तमस्ति तत्र अवयत्व अभावः अस्ति घ्राणम् अवयवः नास्ति वयं चिन्तयामः तत्र घ्राणं रसनं सर्वं तत्र अवयवाः शरीरस्य अवयवाः सन्ति अतः तत्र असमाहारद्वन्द्वसमासः भवेत् किन्तु तद् न भवति यतोहि घ्राणेन्द्रियं तत्र इन्द्रियमस्ति किन्तु वयं तत्र द्रव्यस्य त्रैविध्यं कृतवन्तः नाम शरीरम् इन्द्रियं विषयः नाम इन्द्रियं शरीरस्य भागः नास्ति शरीरे संयुक्तः अस्ति किन्तु साक्षात् शरीरस्य अवयवः नास्ति अवगतं भगिनि सर्वे प्रश्नः तत्र
किमर्थं
यतोहि तदेव अस्माकं तत्र पूर्वम् आसीत् खलु प्रथमम् अस्ति शरीरं पार्थिवशरीरं खलु
पार्थिवशरीरं
तदनन्तरम् इन्द्रियं नाम इन्द्रियं पार्थिवशरीरात् भिन्नः
इति
अतः इन्द्रियं भिन्नमस्ति पार्थिवशरीरस्य भागः नास्ति अवयवः नास्ति किन्तु पार्थिवशरीरे संयोगेन अस्ति
अतः इदानीं
यतोहि पार्थिवशरीरम् अपि द्रव्यं पार्थिव इन्द्रियम् अपि द्रव्यं तयोः संयोगः तत्र सम्बन्धः इति अतः तत्र संयुक्तद्रव्यत्वात् एष एतत् घ्राणेन्द्रियं तत्र संयुक्तः अस्ति शरीरेण न तु साक्षात् अवयवः अस्ति अतः यद्यपि एषः नियमः अस्ति व्याकरणे तत्र शरीराङ्गाः अस्ति चेत् तत्र समाहारद्वन्द्वसमासः भवेत् किन्तु अत्र वयं न स्वीकुर्मः तत्र इन्द्रियम् अवयवः अस्ति इति कृत्वा न्यायशास्त्रे अतः पुनः तत्र इतरेतरद्वन्द्वसमास इव रूपं लभ्यते अत्र किन्तु तत् अतः तत्र नियमः अस्ति किन्तु
इतरेण
अतः एव तत्र श्रोत्राणि इति बहुवचनरूपं स्वीकृतं यतोहि तत्र पञ्च सन्ति इति पञ्च इन्द्रियाणि सन्ति इति अस्तु भगिनि अग्रे पठतु तर्हि तत्र तेषु इति इदानीं
तेषु चक्षुः त्वग् मनांसि गुणस्य इव तदाश्रयः द्रव्यस्यापि प्रत्यक्षं जनयन्ति चक्षुषा रूपस्य इव तदाश्रयस्य घटादेः अपि प्रत्यक्ष उत्पादनात् भवति हि उन्मीलितनयनस्य पुंसः नीलोघटः इति प्रत्यक्षात्मकं ज्ञानं एवमेव चक्षुत्वक् मनांसि गुणस्य इव तदाश्रय द्रव्यस्यापि प्रत्यक्षं जनयति यथा उक्तं चक्षुः इति गुणः अस्ति गुणस्य आश्रयः अस्ति तथा एव द्रव्यस्यापि प्रत्यक्षं जनयति तत्तु द्रव्यमपि अस्ति चक्षुः इति तथा एव
चक्षुः तेषु इत्युक्ते केषु तत्र षड् इन्द्रियाणि सन्ति
चक्षुरसनं घ्राणं त्वक् श्रोत्रमनः तेषु एतानि त्रीणि चक्षुः त्वक् मनः इति गुणस्य इव तदाश्रयः द्रव्यस्यापि प्रत्यक्षं जनयति इति उक्तं खलु जनयन्ति
नाम ते किं कुर्वन्ति चक्षुः त्वग् मनांसि तत्र पुनः तत्र द्वन्द्वसमासः इतरेतर द्वन्द्वसमासः मनांसि मनः मनसि मनांसि खलु अतः बहुवचने अस्ति मनांसि
सति
जनयन्ति किं जनयन्ति
प्रत्यक्षं जनयन्ति
कस्य प्रत्यक्षं जनयन्ति गुणस्य प्रत्यक्षं जनयन्ति अपि तद् इत्युक्ते तत्र
तदाश्रयः इत्युक्ते
तदाश्रय इत्युक्ते
गुणाश्रयः
गुणस्य आश्रयः यः यत् द्रव्यमस्ति तस्य अपि प्रत्यक्षं जनयन्ति नाम केवलं गुणस्य ज्ञानं जनयति इति न किन्तु गुणस्य आश्रयः यत् द्रव्यमस्ति तस्य प्रत्यक्षज्ञानमपि जनयति अस्तु तर्हि उदाहरणमस्ति चक्षुषा
रूपस्य इव तदाश्रयस्य घटादेः अपि प्रत्यक्ष उत्पादनात् चक्षुषा रूपस्य आश्रयः भवति इति वयं जानीमः
चक्षुषा रूपस्य ग्रहणं भवति
तथा एव तदाश्रयस्य इत्युक्ते गुणाश्रयरूपस्य आश्रयस्य घटादेः अपि प्रत्यक्ष उत्पादनात्
तत्र घटादेः इति तत्र विभक्तिका घटादेः इति
घटः आदिः घटादिः इति अस्ति खलु
घटादिः इति पदं तस्य षष्टि
घटादेः इति अस्ति
घटादेः प्रत्यक्ष उपाधानम् उत्पादनात् नाम प्रत्यक्ष
उत्पादनं
जनयति तस्य जनयति प्रत्यक्षज्ञानं जनयति रूपमस्ति रूपस्य ज्ञानं जनयति चक्षुः अपि रूपस्य आश्रयः यत्किमपि द्रव्यं भवेत् घटः वा पटः वा किमपि तस्य अपि प्रत्यक्षज्ञानं उत्पादयति जनयति चक्षुः नाम यदि तत्र नीलपुस्त तत्र अग्रे एव तत्र
भवति हि उन्मीलितनयनस्य पुंसः नीलोघटः इति प्रत्यक्षात्मकं ज्ञानं उन्मीलितनयनस्य इत्युक्ते ओपन् नयनस्य इति
सत्यं
उन्मीलितनयनस्य नीलः घटः
तत्र पुंसः इति प्रायशः तत्र षष्टिः अस्ति इति मन्ये खलु
षष्टिमान्
इति पुमान् इति तत्र पुमान् इति तत्र विशिष्टपदम् अस्ति खलु भगिनि, नाम तत्र प्रत्यक्षात्मकं ज्ञानं भवति, तत्र भवति इति क्रियापदं भवतिः, अतः क्रियापदम् अस्ति भवतिः. किं भवतिः कर्तृपदं किमस्ति?
ज्ञानम् इति वा, प्रत्यक्षात्मकं ज्ञानं.
हा, प्रत्यक्षात्मकं ज्ञानं भवतिः, भवति एव. कस्य? हा,
उन्मीलितनयनस्य
पुंसः, पुरुषस्य. हा, कोऽपि पुरुषः अस्ति, तस्य नयनम् उन्मील तत्र उन्मीलितः अस्ति, तस्य प्रत्यक्ष आत्मकं ज्ञानं भवति. कीदृशं नाम, उदाहरणार्थं
नीलघटः इति.
हा, तत्र घटः अस्ति, घटे नीलत्वम् अपि अस्ति, अतः नीलत्ववान् घटः इति तत्र वयं दृष्टवन्तः. हा, तत्र नीलः इति गुणमपि अस्ति, तस्य आश्रयः घटः अस्ति इति. तत्र द्वयोः अपि ज्ञानं, प्रत्यक्षात्मकं ज्ञानं भवति.
इत्युक्ते अत्र रूपः इति नीलत्वम् अस्ति, घटः इति तस्यापि आश्रयः भवति इति.
समीचीनं,
तस्यापि प्रत्यक्षज्ञानं भवति इति.
प्रत्यक्षज्ञानं भवति, केवलं नीलम् इति ज्ञानं न भवति. नीलम् इति किमपि पदार्थः, कोऽपि पदार्थः अस्ति अपि तस्य आश्रयः अस्ति अपि तस्यापि ज्ञानं भवति. अतः नीलो घटः इति प्रत्यक्षात्मकं ज्ञानम् अस्माकम् अस्ति. अस्तु, समीचीनं भगिनि. हा, अस्तु, अग्रे तत्र अशोक महोदय अग्रे पठति वा?
धन्यवादः महोदय.
धन्यवादः भगिनि. हा,
अस्तु महोदय. एवमेव त्वग् इन्द्रियं मनसोः अपि आश्रयग्राहकत्वं बोध्यम् अन्येषु.
इदानीं तत्र, हा, तावदेव महोदय. हा,
द्वितीयभागः अहम् अवगच्छामि. मनसा अहं सुखी इति ज्ञानं वर्तते, सुखः गुणः अस्ति, अहम् आत्मः अस्ति, अतः मनसा आत्मस्य ज्ञानं, आत्मनः ज्ञानं भवति, गुणस्य ज्ञानम् अपि भवति.
तत्र मनसा गुणस्य ग्रहणं भवति, अपि गुण आश्रयस्य अपि ग्रहणं
भवति,
ज्ञानं भवति. समीचीनं. हा, इदानीं
तत् अपि त्वकः अहं अवगच्छामि प्रायः त्रि द्रव्येषु स्पर्शः वर्तते, वायुः, जलं, आदित्य, आदित्य
तेजः.
अतः प्रायः तेजसि स्पर्शः अस्ति वा, न तु वायौ अस्ति वा, न तु जले अस्ति वा, प्रायः तस्य भिन्नत्वं प्रायः प्रदर्शयति. किन्तु
इदानीं तस्य विषये चर्चयामः तर्हि. तत्र अस्तु, तत्र जननं, तत्र चिन्तनं किम् अस्ति, तत्र भवन्तः किं चिन्तयन्ति? तत्र त्वगिन्द्रियेण केवलं गुणस्य, तत्र त्वगिन्द्रियं कस्य गुणस्य ग्राहकमस्ति?
स्पर्शस्य.
हा, अस्तु, तर्हि तत्र स्पर्शः इति गुणः, स्पर्शः इति गुणः तत्र अस्ति, तस्य आश्रयः भवेत्. स्पर्शः कुत्र कुत्र वर्तते, कोऽपि वदति वा? अशोक महोदय उक्तवान्, किन्तु अन्य कोऽपि वदतु. हा,
जले वर्तते.
जले वर्तते. नरसिंहमहोदय नमस्कारः. हा, जले वर्तते. हा,
तेजसि वर्तते.
तेजसि वर्तते. अपि वायो
वायो
वर्तते
वायो अपि वर्तते हा अतः तत्र पदार्थ
वायो अपि वर्तते
हा अतः द्रव्य तत्र त्रीणि द्रव्याणि सन्ति येषु तत्र स्पर्शः वर्तते इदानीं तत्र आश्रयः अतः तत्र वायुः वा तेजः वा अथवा तत्र जलं वा भवेत् इदानीं तत्र
पृथिव्यामपि अस्ति महोदय
पृथिव्यामपि
स्पर्शः
पृथिव्यामपि स्पर्शः अस्ति समीचीनं हा अस्तु अस्तु समीचीनं हा इदानीं तत्र अस्तु तर्हि तत्र आश्रयस्य ज्ञानं भवति वा स्पर्शस्य आश्रयः आश्रयस्य ज्ञानम् इदानीं हा इति प्रश्नः अत्र उक्तमस्ति तत्र भवति इति किन्तु यद् हा तत्र भवति न वा इति प्रश्नः किं चिन्तनं नाम तादृश उदाहरणं जलस्य तत्र ज्ञानं भवति इति कोऽपि प्रदर्शयति वा तत्र यदि जलः जलम् आश्रयः भवेत् चेत् तत्र स्पर्शः कीदृशः भवेत्
शीतस्पर्शः
हा अतः तत्र त्वचा शीतस्पर्शस्य ज्ञानं भवति चेत् हा इदानीं शीतस्पर्शस्य ज्ञानम् अस्ति अतः तत्र किं भवति तत्र
उष्णस्पर्श
शीतस्पर्शस्य ज्ञानम् अस्ति इदानीं हा शीतस्पर्शस्य ज्ञानम् अस्ति इति कृत्वा तत्र त्वचा तत्र किं तत्र जलस्य अपि ज्ञानं भवति वा
आम् आं महोदय शीतस्पर्श स्पर्शः जलस्य लक्षणम् अतः यदि शीतस्पर्शः इति पश्यामि तर्हि जलम् अस्ति इति ज्ञानं
हा किन्तु तत्र हा किन्तु किन्तु एतत् ज्ञानं केवलं त्वचा एव भवेत्
मनः अपि आवश्यकं
मनः अपि आवश्यकं सत्यो ज्ञानजनक सत्यं महोदय तत्र ज्ञानं मनसा भवति किन्तु इन्द्रियं तत्र इन्द्रियं त्व इन्द्रियं भवेत् अतः तत्र शीतस्पर्शः अस्ति चेत् शीतस्पर्शस्य ज्ञानम् अस्ति चेत् तत्र किञ्चित् दर्शनीयम् अस्ति नाम त्वगिन्द्रियं तत्र तस्य कार्यम् अस्ति त्वगिन्द्रियेण जलस्य ज्ञानं भवति इति तत्र अग्रे गत्वा प्रत्यक्षज्ञानं तस्य विवरणं सर्वम् अग्रे अस्ति किन्तु इदानीं किञ्चित् प्रयत्नं कुर्मः नाम तत्र त्वगिन्द्रियस्य अत्र कार्यं किम् अस्ति यदि शीतस्पर्शः इति ज्ञानम् अभवत् तत्र शीतस्पर्शः अस्ति इति त्वचा ज्ञानं भवति एतत् सर्वे अङ्गीकुर्वन्ति वा
आं महोदय
हा इदानीं तत्र एतद् ज्ञानम् अभवत् इति चिन्तयामः तत्र तर्हि तत्र जलम् अस्ति इति सर्वे अङ्गीकुर्वन्ति वा
आं महोदय
इदानीं तत्र जलम् अस्ति चेत् अपि अपि तत्र जलम् अस्ति चेत् तत्र त्वगिन्द्रियम् अपि जलं तयोः तत्र कीदृशः सम्बन्धः भवेत् तत्र किमपि कोऽपि सम्बन्धः भवेत् येन ज्ञानं प्राप्नुमः तत्र कनेक्षन् भवेत् तत्र कनेक्षन् सम्बन्धः नास्ति चेत् विषयः इति भवति किन्तु विषयः इति सम्बन्धः तस्मात् प्राक् अन्य कोऽपि सम्बन्धः भवेत् विषयः इत्युक्ते ज्ञानम् अस्ति किन्तु ज्ञानाय अन्यः कोऽपि सम्बन्धः तत्र भवेत् प्रत्यक्षज्ञान ज्ञानं नाम तत्र कोऽपि सम्बन्धः तत्र निकटसम्बन्धः भवेत्
संयोगसम्बन्धः
हा संयोगसम्बन्धः भवेत् जलः अपि त्वक् तयोः संयोगसम्बन्धः भवेत् तेन संयोगसम्बन्धेन तत्र जलम् अस्ति अपि तत्र जले विद्यमानः शीतस्पर्शस्य अपि ज्ञानं भवति समीचीनं वा तत्र किं चिन्तनं न कोऽपि उक्तवान् न कापि उक्तवती तत्र न्यायशास्त्रे तत्र भागत्रयम् अस्ति इति सर्वे जानन्ति खलु, नाम नामकरणभागः, उद्देशभागः, तदनन्तरं लक्षणभागः, तृतीयभागः कः?
परीक्षा.
परीक्षा, हा, तत्र नाम उद्देशभागे लक्षणभागे वयं तत्र यदि किमपि शृण्मः तस्य परीक्षां अपि तत्र यदि कुर्मः लाभः, नो चेत् तत्र केवलं यद् दत्तमस्ति तद् सत्यम् इति अङ्गीकर्तव्यं भवति, तद् नास्ति, तादृशं नास्ति न्यायशास्त्रे. ते चिन्तयन्ति वयं किमपि वदामः तद् सत्यं न वा इति चिन्तनं कुर्वन्तु, परीक्षां कुर्वन्तु इति. अतः तत्र त्वगिन्द्रियम् आश्रयग्राहकत्वं बोध्यं, तत्र त्वगिन्द्रियस्य अपि आश्रयग्राहकत्वम् अस्ति इति ते वदन्ति, तत्र सर्वे अङ्गीकुर्वन्ति वा?
आं महोदय.
आम्, अशोक् महोदय अङ्गीकरोति इदानीं, किन्तु अन्ये तत्र उष्णस्पर्शस्य ज्ञानमस्ति चेत् तत्र आश्रयः कः भवति?
तेजः.
तेजः, अतः तेजसः अपि ज्ञानं, तत्र आशयस्य अपि ज्ञानं भवति पुनः तत्र संयोगसम्बन्धेन. हा, त्वगिन्द्रिय अपि तेजः, तयोः संयोगसम्बन्धे सम्बन्धः भवेत्, नो चेत् तत्र प्रत्यक्षज्ञानं न भवति इति. अस्तु, अतः तत्र अस्मिन् विषये तत्र कोऽपि प्रश्नः अस्ति वा? तत्र त्वगिन्द्रियम् आशयग्राहकः अस्ति इति. अस्तु महोदय, अतः तत्र प्रश्नः नास्ति इति मन्ये. अतः अग्रे सरामः, तर्हि भवानेव तत्र अन्येषु त्रिषु इति. हा,
अन्येषु त्रिषु इन्द्रियेषु रसेन्द्रियघ्राणेन्द्रिययोः गुणमात्रग्राहकता न तु द्रव्यमपि ताभ्यां गृह्यते. रसनेन्द्रियेण घ्राणेन्द्रियेण गुणस्य ज्ञानमेव भवति, तस्य आश्रयस्य ज्ञानं न भवति.
हा, तत्र रसनेन्द्रियेण गुणः नाम रसनेन्द्रियं तत्र रसस्य ज्ञानं जनयति, किन्तु रसस्य आश्रयः कः इति तद् न जानाति. अपि तथैव तत्र घ्राणेन्द्रियम् अपि द्रव्यस्य.
यद्यपि गुडः चक्षुषा गृह्यते इति न सः अतीन्द्रियः, तथापि घ्राणरसनयोः गुणाश्रयग्राहकत्वं नास्ति. गुडः यदि रसनेन्द्रिय पश्यति तस्य रसनम् एव पश्यति, चक्षुषा
एव समीचीनं. हा, तत्र गुडः अस्ति, गुडस्य तत्र गुडे तत्र कीदृशगुणम् अस्ति, रसम् अस्ति, तत्र रसस्य ज्ञानं रसनेन्द्रियेण भवति, किन्तु रसनेन्द्रियं तत्र चक्षुषा गुडस्य ज्ञानं भवति, किन्तु रसनेन्द्रियेण गुडस्य ज्ञानं न भवति. अतः तत्र यदि वयं किमपि तत्र तत्र मधुरं किमपि मधुरं खादामः, किन्तु मधुरं खादामः तत्र मधुररसः अस्ति इति कृत्वा तत्र अस्माकम् अनुमानं भवेत् एषः गुडः अस्ति इति, किन्तु तत्र साक्षात् न जानीमः खलु. चक्षुषा यदि पश्यामः तदा वयं ज्ञास्यामः अस्तु अस्तु एषः गुडः अस्ति, किन्तु केवलं रसनेन्द्रियेण अनुमानं भवेत्, किन्तु साक्षात् ज्ञानं गुडः स्यात् इति एव ज्ञानं भवति, न तु एषः गुडः एव इति ज्ञानं न भवति. अतः रसनेन्द्रियेण तत्र आश्रयस्य ज्ञानं न भवति, रसस्य ज्ञानं भवति. तथैव तत्र घ्राणेन्द्रिये इति अपि. हा, तत्र घ्राणेन्द्रियेण तत्र यदि तत्र उदाहरणार्थं तत्र ओदनं, तत्र ओदनं पचन्ति जनाः इति चिन्तयन्तु, तत्र किं भवति ओदनस्य तत्र गन्धः भवति खलु, ओदनं यदि पचामः गन्धः तस्मात् गन्धः भवति खलु. हा, गन्धस्य ज्ञानेन वयं तत्र गन्धस्य ग्रहणं घ्राणेन्द्रियेण भवति, किन्तु तत्र तदा किं भवति, हा ओदनं स्यात् इति अस्माकं तत्र मनसि आगच्छति, किन्तु साक्षात् ओदनमिति प्रत्यक्षज्ञानं नास्ति. अन्या तत्र चक्षुषा तद् ज्ञानं भवति, किन्तु घ्राणेन्द्रियेण एतद् ज्ञानं न भवति खलु. अतः तत्र रसनेन्द्रियेण घ्राणेन्द्रियेण तत्र केवलं गुणस्य ज्ञानं भवति, न तु गुणाश्रयस्य. अतः तत्र घ्राणं गन्धस्य प्रत्यक्षं जनयति, रसनेन्द्रियेण रसस्य प्रत्यक्षं भवति. हा, इति एव अस्ति. हा, अस्तु, इदानीं समीचीनं महोदय. अत्र अग्रे अन्य कोऽपि पठेत् तर्हि तत्र अग्रे विमला भगिनी अग्रे पठति वा.
आं महोदय, अत्र कोष्टकं खलु पठनीयं?
हा, कोष्टकं किञ्चित् विवृणोतु, तदनन्तरम् अग्रे पठतु.
द्रव्यगुण उभयग्राहकाणि अपि च गुणमात्रग्राहकाणि इति अस्ति. चक्षुः त्वक् अपि च मनः, एते द्रव्यस्य अपि च गुणस्य ग्राहकाणि सन्ति, परन्तु घ्राणं रसनं श्रोत्रं ते केवलं गुणस्य ग्राहकाणि सन्ति. अत्र महोदय, मनः कथं द्रव्यस्य अपि च गुणस्य ग्राहकमस्ति? उदाहरणं दीयतां कृपया.
नाम तत्र मनसा एव तत्र अग्रे, यतोहि तत्र एतावत् तत्र आत्मन गुणाः तेषां तत्र चर्चा इदानीं नास्ति भगिनि. इदानीं तत्र अग्रे गत्वा दास्यामः. इदानीम् अत्र, हा, इदानीं प्रत्यक्षज्ञानस्य एव विषयः, किन्तु समीचीनः प्रश्नः, तत्र मनसि भवेत् एषः प्रश्नः, किं यतोहि अग्रे तस्य चर्चा भवेत्. हा, किन्तु इदानीं तत्र नाम तत्र तत्र मनसा तत्र सुखः इति ज्ञानं, तस्य ज्ञानं भवति, किन्तु एषः सुखः इति गुणः आत्मनि अस्ति, अतः मनसा एव तत्र आत्मनः प्रत्यक्षज्ञानं भवति इति चिन्तनम् अत्र अस्ति खलु.
अत्र अन्य एकः संशयः अस्ति महोदय, रसनया केवलं रसं ग्रहीतुं शक्यते इति उक्तं, परन्तु यदि मम जिह्वायाः उपरि गुडम् अस्ति, अहं जानामि तद्, यदि शर्करा अस्ति तदपि अहम् अनुभूयामि, तत् कथं वा
भगिनि तत्र, हा भगिनि तत्र कथं तस्य ज्ञानं भवति? इदानीं केवलं तत्र लघुबालकः अस्ति, तस्य मुखे यदि तत्र गुडः स्थापयामः, किन्तु सः गुडः कः इति न जानाति, केवलं तत्र तस्य मुखे स्थापयामः, तत्र केवलं तत्र रसस्य ज्ञानमेव भवति, न तु तत् साक्षात् गुडः इति तस्य ज्ञानं न भवति. पूर्वं ज्ञानमस्ति चेत् गुडः इति जानीमः,
अस्तु अस्तु,
किन्तु एतद् ज्ञानं केवलं तत्र रसनेन्द्रियेण न जातं खलु भगिनि. पूर्वज्ञानं चक्षुषा गुडः, एषः गुडः इति चक्षुषा गृहीतम् अस्ति, तदनन्तरं रसनं गुडस्य रसः एषः इति अपि ज्ञानं जातं खलु. अतः तत्र केवलं तत्र रसनेन्द्रियेण किं गृह्णाति? केवलं रसम् एव गृह्णाति. अन्येन इन्द्रियेण अन्यद् ज्ञानं भवति, तदनन्तरं मिलित्वा तत्र एषः गुडः इति वयं तत्र निश्चयामः, किन्तु केवलम् इन्द्रियं रसनेन्द्रियम् एव अस्ति चेत् तत्र पदार्थस्य ज्ञानं न भवति खलु. हा, अस्तु, अतः तत्र घ्राणं रसनं श्रोत्रं केवलं गुणस्य ज्ञानजनकं न तु गुणाश्रयस्य.
अस्तु महोदय.
अस्तु अग्रे.
इष्टं श्रोत्रेन्द्रियं कर्णपुटेन पृथक्कृतः आकाशदेश एव. तत्तु शब्दस्य एव प्रत्यक्षं जनयति, न तु आश्रयस्य. कुतः? आश्रयस्य आकाशस्य अतीन्द्रियत्वात्, यस्मिन् हि परमाणुपरिमाण अतिरिक्तपरिमाणम् उद्भूतरूपं च भवति. तस्यैव द्रव्यस्य बहिरिन्द्रियेण प्रत्यक्षं भवति नान्यस्य इति च निर्णीतम्.
यत् बहु किमपि अस्ति, अतः किं एकमेव वाक्यं स्वीकृत्य किञ्चित् अवगच्छामः. तर्हि तत्र प्रथमवाक्यं पठतु भगिनि.
इष्टं श्रोत्रेन्द्रियं
नाम तत्र एतावत् केषां चर्चा जाता? तत्र चक्षुः, त्वक्, मनः, तदनन्तरं घ्राणः, घ्राणं, रसनम् इति एव एतावत् आसीत् खलु पूर्वस्मिन् परिच्छेदे.
अवशिष्टं
अवशिष्टम् अवशिष्टम् इन्द्रियम् इदानीम् अस्ति श्रोत्रेन्द्रियं. तत्र एतावत् तत्र किं कृतमस्ति कोष्टके? तत्र द्वैविध्यम् अस्ति, इन्द्रियाणां द्वैविध्यम् अस्ति इति प्रदर्शितं. प्रथमस्तम्भे चक्षुः, त्वक्, मनः इति. द्वितीयस्तम्भे तत्र घ्राणं, रसनं, श्रोत्रम् इति दत्तम्. इदानीं द्वितीयस्तम्भस्य पुनः विवादः क्रियते. नाम घ्राणं, रसनम् एकभागे, श्रोत्रम् अन्यस्मिन् भागे, कथम् इति अग्रे धीयते. नाम यद्यपि घ्राणं, रसनं, श्रोत्रं केवलं गुणस्य ज्ञानं जनयन्ति, न तु गुणाश्रयस्य, तथापि तयोः मध्ये कश्चन भेदः वर्तते. घ्राणं, रसनम् एकभागे, श्रोत्रम् अन्यस्मिन् भागे. अग्रे तत्र
कर्णपुटेन पृथक्कृतः आकाशदेश एव इति इत्युक्ते कर्ण आकाशदेश एव कर्णे अस्ति इति अस्य आशयः. कर्णपुटे
पृथक्कृतः, पृथक्कृतः कर्णपुटः इत्युक्ते किं? कर्णपुटः इत्युक्ते किं?
कर्णस्य बहिः यदस्ति तेन किम्?
हा तेन कर्णपुटेन इति तत्र प्रायशः तत्र कोऽपि वदति वा तत्र कर्णपुटः इति
डैफ्राम् अस्ति वा तत्र?
हा तत्र इयर् ड्रम् इति तादृशं तादृश अस्ति. तेन पृथक्कृतः आकाशदेशः एव नाम तत्र आकाशस्य विभागः कर्णपुटेन भवति. पृथक्कृतः आकाशदेशः एव, तत्र आकाशः एव तत्र शब्दस्य आश्रयः खलु. शब्दः शब्दगुणकम् आकाशम् इति इति अस्ति. तत्र भगिनि पूर्वस्मिन् परिचयते तत्र अतीन्द्रियः इति पदम् आसीत्. तत्र गूढः चक्षुषा गृह्यते अत् इति न स सः अतीन्द्रियः इति अस्ति. तत्र सः इत्युक्ते कः इति वदति वा तत्र?
कुत्र अस्ति महोदय?
पूर्वस्मिन् परिचयते भगिनि.
चक्षुषा गृह्यते इति न सः अतीन्द्रियः तथापि घ्राणरसनयोः. सः इत्युक्ते गुडः.
गुडः एव, हा समीचीनं. हा नाम गुडः चक्षुषा गृह्यते इति न सः गुडः अतीन्द्रियः. अतीन्द्रियः इत्युक्ते इन्द्रियेण तस्य ज्ञानं भवति. यद्यपि गुडस्य ज्ञानं तत्र रसनेन्द्रियेण न भवति, किन्तु तस्य ज्ञानं चक्षुषा भवति. अतः गुडः अतीन्द्रियः नास्ति. इन्द्रियाणां तत्र ग्रहणशक्तेः बहिः नास्ति. तत्र तत्र शक्त्या इन्द्रियेण तत्र तत्र इन्द्रियेषु या शक्तिः अस्ति तया गुडस्य ज्ञानं भवति, गुडस्य ग्रहणं भवति. तस्य ज्ञानं इन्द्रियाणि जनयन्ति. यद्यपि ग्राण अथवा रसनेन्द्रियन् तस्य ज्ञानं न जनयति, किन्तु चक्षुः तस्य ज्ञानं जनयति. अतः तत्र सः अतीन्द्रियः नास्ति. किन्तु अत्र किं भवति, हा अत्र आकाशदेशः एव तत्तु. तत्तु नाम श्रोत्रेन्द्रियं, 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 तत् इत्युक्ते श्रोत्रेन्द्रियम्
एव प्रत्यक्षं जनयति.
हा श्रोत्रेन्द्रियं शब्दस्य एव प्रत्यक्षं जनयति, न तु आश्रयस्य, शब्दस्य आश्रयस्य प्रत्यक्षं न जनयति. किमर्थम्?
आश्रयस्य आकाशस्य अतीन्द्रियत्वात्, इत्युक्ते आकाशः इन्द्रियस्य ग्रहणस्य बहिः अस्ति
इति. हा किन्तु, हा इदानीं किन्तु पुनः प्रश्नः उदेति, कथं वयं तत्र निर्णयं कुर्मः तत्र अतीन्द्रियः अस्ति न वा इति. अतः तत्र अतीन्द्रियः इत्युक्ते कः इति अग्रे दत्तमस्ति. हा अग्रिमवाक्यं भगिनि.
यस्मिन् हि परमाणु परिमाण अतिरिक्तपरिमाणम् उद्भूतरूपं च भवति, तस्यैव द्रव्यस्य बहिरिन्द्रियेण प्रत्यक्षं भवति न अन्यस्य इति च निर्णीतम्. महोदय
अत्र भगिनि तत्र एतद् भागम् यत् अस्ति नाम भागः परमाणुपरिमाण अतिरिक्तपरिमाणम् उद्भूतरूपम् एतद् तत्र एषः प्रायशः सर्वेषु पुस्तकेषु भवति नाम तत्र कुत्रचित् किमपि लिखितमस्ति ये यस्य अवगमनं तत्र स्व अध्यायेन अथवा एतावत् यत् पठितवन्तः तस्मात् तस्य अवगमनं न भवति तत्र अन्यत् किमपि. हा एतद् वाक्यं तादृशम् अस्ति नाम तत्र अग्रे गत्वा तत्र उद्भूतरूपं किम् इति तस्य विवरणम् अग्रे भवति. किन्तु किञ्चित् वदामः तर्हि तत्र परमाणु इति तत्र परिमाणं परमाणुपरिमाणम् इति अस्ति. परिमाणं नाम
मेजर्.
हा तत्र तत्र मापनं तत्र परमाणवः सन्ति. हा तेषां परमाणुपरिमाणं परमाणवः सन्ति तेषां परिमाणं कीदृशमस्ति? अतिलघु अस्ति खलु. परमाणुः इति तत्र यद् खण्डनं कुर्मः तत्र अन्तिमचरमस्तरे यद् प्राप्नुमः तदेव तत्र परमाणवः इति वदामः. तेषां परिमाणं तु अति लघु अस्ति. अतः परमाणुपरिमाणम् इति यत् अस्ति तस्य तस्मात् भिन्नं. हा तत्र अतिरिक्तपरिमाणं कस्मिंश्चित् द्रव्ये अस्ति इति चिन्तयामः. नाम द्रव्यस्य परिमाणं परमाणुपरिमाणं न भवेत्.
परमाणोः तदपि बृहत् अस्ति इति तस्मात्
बृहत् भवेत्. हा तत् किन्तु परमाणुपरिमाणं न भवेत् तत्र. तद्विहाय अन्यत् परिमाणं भवेत् अपि उद्भूतरूपम् अपि भवेत्. उद्भूतरूपम् इदानीं तत्र केवलम् इदानीं तत्र स्वीकुर्मः तत्र सम्यक् दृश्यते. सम्यक् दृश्यते इति अस्ति चेदेव तत्र उद्भूतरूपं सम्यक् दृश्यते इत्युक्ते उद्भूतरूपम् इति चिन्तयामः.
तदा एव
द्वयमपि अस्ति
चेदेव तस्य बहिरिन्द्रियेण प्रत्यक्षं ज्ञानं भवति इति.
हा अतः तत्र अग्रे तत्र दत्तमस्ति तत्र बहु किमपि अस्ति तत्र. हा द्रव्यप्रत्यक्षं तत्र उद्भूतरूपम् एतत् सर्वं तत्र अग्रे परमाणुपरिमाणम् अतिरिक्तपरिमाणं किं किम् अस्ति इति अग्रे दत्तमस्ति. किन्तु इदानीं तत्र उद्भूतरूपम् अपि भवेत् परिमाणमपि भवेत् इति तत्र यदि द्वयमपि अस्ति तदा एव तत्र बहिरिन्द्रियेण प्रत्यक्षज्ञानं तस्य पदार्थस्य भवति. हा इति अस्ति हा तत्र परमाणवः सन्ति तत्र अणुकं हा तत्र अणुकं द्वय अणुकं त्रय अणुकम् इति सर्वम् अस्ति तत्र प्रायशः तत्र अग्रिमे पुटे दत्तम् अस्ति हा तत्र हा एतावत् समीचीनं भगिनि तत्र अग्रे अग्रे हा अग्रे कोऽपि अन्य कोऽपि पठतु तर्हि धन्यवादः भगिनि हा हा अत्र अग्रे तत्र हा सुधा भगिनी पठति वा अग्रे तत्र अधोभागे तत्र चित्रम् अस्ति एकवारं वदतु भगिनि तत्र
घटादयः अधोभागे अस्ति तत्र घटादयः परमाणु परिमाण अतिरिक्त परिमाणम् अपि च उद्भूतरूपं भवेत्
तत्र घट घटे घटे तत्र परिमाणं तत्र नाम तत्र घटः दृश्यते तस्य प्रत्यक्षज्ञानम् अस्ति तत् अतः तत्र तस्मिन् उद्भूतरूपम् अस्ति यतोहि पूर्वं यदुक्तम् उद्भूतरूपमपि भवेत् परमाणुपरिमाणम् अतिरिक्तपरिमाणमपि भवेत् इति तदा एव तस्य प्रत्यक्षज्ञानं भवति घटस्य प्रत्यक्षज्ञानं भवति खलु अतः तस्मिन् उद्भूतरूपमपि अस्ति परमाणुपरिमाण अतिरिक्तपरिमाणमपि अस्ति अपि तत्र घटः इति तत्र पृथ्व्यादित्रिकम् इति अस्ति पृथ्व्यादित्रिकम् इत्युक्ते किम् अत्र
पृथिव्यादित्रिकम् इत्युक्ते इन्द्रियविषय
प्रायशः तद् तत्र प्रत्यक्षयोग्याः इति अस्ति नाम तत्र जलम् वदतु महोदय
पृथ्वी आप तेज
तेजः तत्र तत्र द्रव्यत्रयं तेषां तत्र जलस्य अपि तत्र वयं जलम् इति तत्र पश्यामः खलु तत्र जलम् अस्ति इति तत्र जलस्य अपि प्रत्यक्षं ज्ञानम् अस्ति अतः तत्र पृथ्वी जलम् अपि तेजः तेषां प्रत्यक्षज्ञानं भवति अतः ते सर्वे प्रत्यक्षयोग्याः नाम तेषां प्रत्यक्षज्ञानं भवति प्रत्यक्षज्ञानाय योग्याः सन्ति ते तानि तत्र द्रव्यत्र एतानि त्रीणि द्रव्याणि अग्रे भगिनि अग्रे तत्र न प्रत्यक्षयोग्याः इति तत्र एकं स्वीकृत्य वदतु तत्र प्रायशः तत्र तत्र पृथ्व्यादित्रिकस्य इति तत्र सुधा भगिनि भवती तत्र प्रथमचित्रं पठित किञ्चित् तस्य विषये उक्तवती इदानीम् अग्रिमे पुटे तत्र बृहत् चित्रम् अस्ति तत्र अनेके भागाः सन्ति किन्तु उपरि उपरि भाम तत्र दक्षिणभागे उपरि दक्षिणभागे तत्र उद्भूतरूपं तत्र पृथ्व्यादित्रिकस्य परमाणुद्वयणुकम् इति तत्र किञ्चित् तद् वदतु भगिनि तत्र
अस्तु पृथिव्यादित्रिकस्य परमाणुः द्वयणुकम् पृथिव्यादित्रिकस्य इत्युक्ते पृथिवी जलं तेजसः परमाणु द्वय
तत्र पृथ्वीपरमाणु तत्र पृथ्वीपदार्थस्य परमाणवः वा अथवा जलस्य परमाणुः वा अथवा तेजसः परमाणुः अथवा परमाणु अपि भवेत् अथवा द्वयणुकं द्वयणुकं नाम परमाणुद्वयम् द्वयणुकं नाम परमाणुद्वयं पृथ्वी अस्ति तस्य पार्थिवपरमाणुद्वयं पार्टिव द्वयणिकम् इति. तत्र किं भवति? तत्र
तत्र परमाणु परिमाण भिन्नपरिमाणं नास्ति इति उक्तमस्ति.
तत्र नास्ति हा, किन्तु
किन्तु अत्र उद्भूतरूपम् अस्ति. तद्
उद्भूतरूपम् अस्ति इति इदानीं तत्र हा अस्मिन् विषये तत्र बहु तत्र अग्रे चर्चा भवति. नाम उद्भूतरूपं किम् इति तत्र अग्रे चर्चा भवति, नो चेत् तत्र किन्तु केवलं तत्र किम् इष्टम् अत्र नाम परमाणुः तत्र न दृश्यते, तत्र तस्य प्रत्यक्षज्ञानं न भवति, केवलम् अनुमानेन एव परमाणवः सन्ति इति वयं ज्ञातुं शक्नुमः. प्रत्यक्षज्ञानं नाम इन्द्रियेण तस्य प्रत्यक्षज्ञानं न भवति परमाणोः. अपि परमाणुः अपि द्वयणुके उद्भूतरूपम् अस्ति, किन्तु तेषां परिमाणं तत्र तादृशं लघु अस्ति, अतः तत्र तेषां प्रत्यक्षज्ञानं न भवति. किन्तु तत्र न्यायशास्त्रे परमाणुः अस्ति, द्वयणुकम् अस्ति, द्वयणुकं नाम परमाणुद्वयं, तथैव त्रयणुकम् अस्ति. तत्र वयं किं चिन्तयामः, त्रयणुके तत्र कति परमाणवः सन्ति इति? त्रयणुके
षट् अस्ति वा?
हा षट् अस्ति, यतोहि त्रयणुकं नाम द्वयणुकत्रयम् इति त्रयणुकं. हा तत्र न्याय तत्र नाम द्वयणुकं परमाणुद्वयं, किन्तु त्रयणुके द्वयणुकत्रयम् अस्ति, अतः तत्र षट् परमाणवः सन्ति हा त्रयणुके. तत्र नैयायिकशास्त्रे तत्र किं वदन्ति, तत्र त्रयणुक आरभ्य तत्र तेषां तत्र उद्भूतरूपमपि अस्ति, तत्र अपि परिमाणं समीचीनमस्ति, अतः तेषां प्रत्यक्षज्ञानं भवति इति. हा किन्तु तत् अग्रे गत्वा पश्यामः. किन्तु तत्र परमाणुः प्रत्यक्षयोग्यः नास्ति, अपि द्वयणुकमपि तथैव अस्ति, प्रत्यक्षयोग्यः नास्ति, तयोः प्रत्यक्षज्ञानं न भवति इति. तत्र इदानीं तत्र यद्दत्तमस्ति तस्य बहु किमपि तत्र चर्चा अग्रे भवति. यदा वयं तत्र प्रत्यक्षं तत्र उद्भूतरूपं किम् इति अग्रे ज्ञास्यामः. इदानीं तत्र इन्द्रियस्य विषयः अस्ति, अपि तत्र गुणस्य विषयः अस्ति, अतः किञ्चित् दत्तमस्ति. हा अस्तु तर्हि तत्र अन्यभागः तत्र शोभ धन्यवादः भगिनी. अन्यभागः तत्र शोभा भगिनी किञ्चित् विवृणोति वा तत्र भामभागे यदस्ति? वायु तत्र शुभ भगिनि अस्ति वा? न श्रूयते भगिनि. अस्तु अन्य कोऽपि तर्हि वदतु तर्हि तत्र हा नरसिंह महोदय किञ्चित् वदति वा अग्रे? हा तत्र उपरि रूपं न वर्तते इति
रूपं न वर्तते, परमाणुपरिमाण भिन्नपरिमाणमस्ति. वायुप्रभृतिद्रव्याणि विशेषतश्च त्वगेन्द्रियं वायवीयं श्रोत्रेन्द्रियम् आकाशस्वरूपश्च. अत्र वायुप्रभृतिद्रव्याणि इत्युक्ते वायु आकाश मनादिकात्व वायुप्रभृति वायुद्रव्य आरभ्य विशेषतः त्वक्केन्द्रियम् अनन्तरं श्रोत्रेन्द्रियम् अनन्तरम् आकाशस्वरूपश्च. उद्भूतरूपं न भवति, तत्र प्रत्यक्षयोग्यता नास्ति. किमर्थम् इत्युक्ते तत्र रूपमस्ति यतोहि, परन्तु परमाणुपरिमाणातिरिक्तपरिमाणं नास्ति, अतः प्रत्यक्षयोग्यता नास्ति तेषु.
न महोदय तत्र रूपं न वर्तते, उद्भूतरूपं
रूपं न वर्तते. उद्भूतरूपं
उद्भूतरूपं न वर्तते, रूपमेव न वर्तते अतः तत्र उद्भूतरूपम् इति अपि तत्र वार्ता एव नास्ति रूपमेव न वर्तते वायु
क्षम्यतां द्वयमपि न वर्तते उद्भूतरूपमपि नास्ति परमाणु परिमाणातिरे भिन्नपरिमाणमपि नास्ति क्षम्यतां
न न पुनः पठतु महोदय
क्षम्यतां महोदय भिन्नपरिमाणमस्ति परन्तु रूपं नास्ति
नाम तत्र परमाणु परिमाणं नास्ति किन्तु रूपम् एव नास्ति रूपं नास्ति चेत् तत्र उद्भूतरूपम् अस्ति न वा इति प्रश्नः एव न उदेति अतः तत्र तेषु प्रत्यक्षज्ञानं न भवति वायोः अथवा अन्ये तत्र आत्मा इति तत्र तेषां प्रत्यक्षज्ञानं न भवति अस्तु अग्रे तत्र अपि तत्र त्वगिन्द्रियं हा तत्र वायवीयं हा श्रोत्रेन्द्रियं हा एतत् सर्वम् आकाशस्वरूपपञ्च हा तत्र त्वगिन्द्रियम् इति अपि अस्ति तत्र तस्य प्रत्यक्षज्ञानं न भवति इति उक्तं तत्र किं तत्र तत् समीचीनमस्ति वा त्वगिन्द्रियस्य प्रत्यक्षज्ञानं न भवति इति
समीचीनमस्ति वयं किमपि स्पर्शयामः चेत् तत् किम् अस्ति इति न जानीमः तत्र
न त्वगिन्द्रियमपि तत्र त्वगिन्द्रिये तत्र वायवीयं श्रोत्रेन्द्रियम् आकाशं स्वरूपञ्च हा नाम किम् अस्ति तत्र
त्वगिन्द्रियमपि न प्रत्यक्षयोग्यं श्रोत्रेन्द्रियमपि न प्रत्यक्षयोग्यं
योग्यं हा नाम तत्र इन्द्रियम् अस्ति इति वयं केवलम् अनुमानेन एव
वक्तुं शक्नुमः
कोऽपि इन्द्रिय किमपि इन्द्रियं किमपि अस्ति येन अस्य ज्ञानं भवति अतः तत्र इन्द्रियस्य अपि प्रत्यक्षज्ञानं न भवति केवलम् अनुमानेन एव भवति इति अग्रे एतद् पश्यामः अस्तु अधोभागे महोदय
अधोभागे पृथिव्यादिरूप्याणि पृथिव्यादिरूपाणि अपि घ्राणरसनचक्षुरिन्द्रियाणि तेषु रूपं वर्तते उद्भूतरूपं न वर्तते परमाणुपरिमाणभिन्नपरिमाणं वर्तते परमाणुपरिमाणभिन्नपरिमाणं वर्तते परन्तु रूपं वर्तते परन्तु उद्भूतरूपं नास्ति अतः तेषां प्रत्यक्षयोग्यता नास्ति पृथिव्यादि रूपाणि अपि घ्राणरसनचक्षुरिन्द्रियस्य
नाम घ्राणेन्द्रियं कीदृशम् इन्द्रियम् अस्ति तत्र पदार्थः अस्ति घ्राणेन्द्रियं सः पदार्थः कीदृशः पदार्थः घ्राणेन्द्रियं
गुणमात्रग्राहकं
न घ्राणेन्द्रियं द्रव्यमस्ति घ्राणेन्द्रियं तत्र पार्थिवद्रव्यमस्ति वा जलीयद्रव्यमस्ति वा अतः तत्र पृथिवीरूपम् अस्ति खलु तस्य घ्राणेन्द्रियं पृथिवीरूपं पृथिव्यादिरूपाणि अपि सन्ति घ्राणरसनचक्षुरिन्द्रियाणि अतः तत्र घ्राणेन्द्रियं पार्थिवद्रव्यमस्ति पृथ्वीरूपम् अस्ति किन्तु घ्राणेन्द्रिये
रूपं
वर्तते उद्भूतरूपं नास्ति अपि परमाणुपरिमाणभिन्नपरिमाणं वर्तते अतः तत्र रूपं वर्तते उद्भूतरूपं न वर्तते इति कृत्वा तत्र प्रत्यक्षयोग्यः नास्ति घ्राणेन्द्रियं तथैव रसनेन्द्रियम् अपि
द्वयोर्मध्ये एकं नास्ति अपि चेत् प्रत्यक्षयोग्यता न भवति
द्वयोः इति अस्ति महोदय अतः तत्र परमाणु परिमाणं नास्ति चेत् योग्यः नास्ति उद्भूतरूपं नास्ति चेत् अपि योग्यः नास्ति अतः तत्र चतुर्विध अयोग्यता तत्र प्रदर्शिता अस्ति हा तत्र मनः इति तस्मिन् रूपमपि नास्ति
परमाणुपरिमाणभिन्नपरिमाणमपि न वर्तते
नाम मनः मनसः परिमाणं परमाणुपरिमाणमिति चिन्तनम् अस्ति तेषां, यतोहि परमाणुपरिमाणभिन्नपरिमाणं तस्य नास्ति. यदि भिन्नपरिमाणं तस्य मनसः भिन्नपरिमाणं नास्ति चेत् मनसः परिमाणं परमाणुपरिमाणम् एव भवेत् खलु. अत्र तत्र मनः अपि प्रत्यक्षयोग्यः नास्ति इति एतत् सर्वं दत्तमस्ति. अस्मिन् विषये तत्र किम् अग्रिम तत्र पाठे यत् अस्ति द्रव्यप्रत्यक्षं केन भवति इति, तत्र उद्भूतरूपस्य तत् सर्वस्य किञ्चित् विवरणम् अस्ति. अतः प्रायशः तत्र परिचयत्वेन एतद् चित्रं दत्तम् अस्ति इति चिन्तनम् इदानीं भवेत्. अस्तु, धन्यवादः महोदय. अस्तु, अग्रे तत्र अग्रे सरामः तर्हि. एतावत् हा इदानीम् अधुना श्रूयते भगिनि. हा
अस्तु, समीचीनम्.
अस्तु, अग्रे पठति वा भगिनि?
हा पठामि महोदय. तत्र द्रव्यप्रत्यक्षं केन भवति इति आरभ्य.
सत्यं.
द्रव्यप्रत्यक्षं केन भवति? घटे उद्भूतरूपमस्ति, परमाणुपरिमाण अतिरिक्तं मध्यमपरिमाणं च वर्तते इति तस्य चक्षुषा त्वचा च प्रत्यक्षं भवति. तत्र अग्रे पठनीयं वा तावत्?
एतत् किञ्चित् वदतु तर्हि.
तत्र घटे उद्भूतरूपम् अस्ति, यतोहि तत्र प्रत्यक्षयोग्यः अस्ति घटं, प्रत्यक्षः भवति इति कृत्वा उद्भूतरूपम् अस्ति. परमाणुपरिमाण अतिरिक्तं तत्र मध्यमपरिमाणम् इति किम् इति न जानामि.
समीचीनं. तत्र पेज् 63 यदि पश्यामः तत्र दत्तमस्ति, किन्तु इदानीं तत्र किन्तु किमपि परिमाणम् अस्ति यत् परमाणुपरिमाणं नास्ति,
अतिरिक्तम् अस्ति. यथा पूर्वोक्तं तत्र परमाणुपरिमाण भिन्न भिन्ना अस्ति, अतिरिक्तम् अस्ति,
भिन्नं भवेत्, किन्तु चक्षुषा तस्य ग्रहणं भवति इति कृत्वा चक्षुषा त्वचा च तस्य प्रत्यक्षं भवति. घटस्य तत्र घटम् अस्ति इति वयं चक्षुषा, तत्र किमपि अस्ति इति चक्षुषा तस्य ज्ञानं भवति, त्वचा अपि तस्य प्रत्यक्षज्ञानं भवति. अतः तत्र यद् यदा वर्तते किमर्थम् इत्युक्ते एतादृशं भवति इति कृत्वा तत्र तस्मिन् घटे तत्र मध्यमपरिमाणं भवेत्, तत्र परिमाणस्य तत्र परमाणुपरिमाणं मध्यमपरिमाणम् अपि अन्यत् अपि भवति, तत्र तृतीयपरिमाणं. एतत् मध्यमपरिमाणम् इति स्वीकृतं, नाम तत्र लघु अपि नास्ति बृहत् अपि नास्ति, मध्ये अस्ति इति. मध्यमपरिमाणं नाम आकाश इव तत्र बृहत् नास्ति, परमाणु इव लघु अपि नास्ति, अथवा मध्यमपरिमाणम् अस्ति. तत्र परमाणुः यदस्ति तस्य प्रत्यक्षज्ञानं किमर्थं न भवति? यतोहि परमाणुः बहु लघु अस्ति, तस्य परिमाणं
चक्षुषा न
तस्य ज्ञानं न दृश्यते, न दृश्यते एव. अपि आकाशः बृहान्, तत्र आकाशः बृहान् अस्ति, तस्य परिमाणं बृहत् अस्ति, तादृशं बृहत् अस्ति, अतः तत्र पुनः तत्र तस्य प्रत्यक्षज्ञानं न भवति. आकाशम् इत्युक्ते तत्र यद् आकाशम् इति तत्र न्यायशास्त्रे किम् इति कोऽपि वदति वा? आकाशः इत्युक्ते
जलं
न, किन्तु आकाशः इत्युक्ते कः पदार्थः? तत्र शब्दगुणकम् आकाशं सत्यं, किन्तु आकाशः इत्युक्ते तत्र स्कै इति नास्ति, स्पेस् इति अस्ति. तत्र स्कै इति चिन्तनं मास्तु. साधारण तत्र सर्वदा लौकिकव्यवहारे आकाशः इत्युक्ते स्कै इति अस्ति, किन्तु अत्र आकाशः इत्युक्ते स्पेस्. अतः तत्र आकाशः
इति वा महोदय?
आकाशः
आकाश इत्युक्ते स्पेस् अवकाश इति
अवकाशः इत्युक्ते तत्र अवधिः इति अर्थे अस्ति अवकाशः यत् किन्तु एतत् आकाशः इत्युक्ते स्पेस् इति तत्र बृहत् इति अर्थे तत्र स्पेस् इति यत् आङ्ग्लभाषायाम् अस्ति सः एव तत्र आकाशः स्पेस् तत्र अवकाश इत्युक्ते पदार्थद्वयम् अस्ति तयोः मध्ये यः भागः वर्तते तत्र तद् अवकाशः भवति खलु अवकाशं हा किन्तु हा समीचीनं वा भगिनि तत्र आकाशः इत्युक्ते कः इति नीता भगिनि
अवगतम्
अस्तु तत्र घटस्य मध्यमपरिमाणं बृहत् अपि नास्ति बृहान् अपि नास्ति लघु अपि नास्ति इति कृत्वा घटस्य मध्यमपरिमाणम् अस्ति इति उक्तं मध्यमपरिमाणम् इत्युक्ते तत्र परमाणुपरिमाणम् इति किम् इति वयं ज्ञातुं शक्नुमः अपि बृहत् परिमाणं किम् इति यदि तस्य लक्षणं पठामः तदा किं भवति यद् परमाणुपरिमाणं नास्ति यत् बृहत् परिमाणं तृतीयविधं परिमाणं नास्ति तद् मध्यमपरिमाणम् इति स्वीकृतं भवति तावदेव अतः तत्र न लघु अपि न भवेत् बृहान् अपि न भवेत् तदा मध्यमपरिमाणम् इति वदामः इति व्यवहारं भवति अस्तु तर्हि तत्र शोभगिनी अग्रे किञ्चित् पठति वा
आम् महोदय परमाणुद्वेणुकोयोः उद्भुतरूपम् अस्ति परन्तु परमाणुपरिमाण अतिरिक्तपरिमाणं न वर्तते इति तयोः प्रत्यक्षम् अथवा साक्षात्कारः न भवति एवमेव घ्राणेन्द्रियादीनि
इदानीं तत्र एतस्य प्रथमवाक्यस्य तत्र चित्रे कुत्र अस्ति
परमाणुवेणुकयोः इति तत्र कुत्र आसीत् तत्र रूपं वर्तते उद्भूतरूपं नास्ति परमाणु एकक्षणं द्वेणु तत्र पृथिव्यादित्रिकस्य परमाणुः द्वेणुकम् इति आसीत् तत्र उद्भूतरूपम् अस्ति परमाणुपरिमाणभिन्नपरिमाणं नास्ति
हा इति अतः एव तत्र तेषां प्रत्यक्षज्ञानं न भवति उद्भूतरूपम् अस्ति नाम रूपम् उद्भूतरूपं सम्यक् दृश्यते इत्युक्ते नाम तत्र तस्य किमपि रूपम् अस्ति
अस्ति अस्ति
हा किन्तु तत्र परिमाणं भिन्नं
तत्र पृथिव्याः परमाणुरूपं परमाणुपरिमाणभिन्नपरिमाणं नास्ति अस्तु परमाणु एव अस्ति इति कृत्वा
तस्य परिमाणं
नित्यं
परमाणुपरिमाणम् एव अस्ति द्वयणुकस्य अपि तदेव परिमाणम् अस्ति किन्तु त्रयणुक आरभ्य ते वदन्ति तत्र तस्य परिमाणं मध्यमपरिमाणम्
भवति इत्युक्ते त्रयणुकस्य आरभ्य
त्रयणुकारभ्य
त्रयणुकपर्यन्तम् इति अग्रे
तत्र यद् किमपि या कापि सङ्ख्या भवेत् तस्य तत्सर्वं मध्यमपरिमाणम् इति अग्रे तत्र किन्तु इदानीं द्वयणुकम् अपि परमाणु तयोः तत्र प्रत्यक्षज्ञानं नास्ति यद्यपि तेषु अथवा तयोः तत्र उद्भूतरूपम्
अस्ति उद्भूतरूपम्
अस्ति
तथापि
किन्तु परिमाणं लघु अस्ति प्रत्यक्षं नास्ति इति अस्ति अस्तु अस्तु तर्हि तत्र समयः अपि जातः किन्तु तत्र तत्र चित्रस्य विवरणम् अग्रे भवति अपि तत्र उद्भूतरूपस्य तत्र यथा दत्तमस्ति तत्र उद्भूतरूपं पेज् 63 इति उक्तवान् क्षम्यतां 53 मध्ये अस्ति तदा वयं उद्भूतरूपं किम् इति वयं ज्ञास्यामः अतः तत्र तावत् अतः तत्र अग्रिमवर्गे अथवा तस्य अनन्तरं वयं तत्र एतस्य सम्यक् अस्माकं सम्यक् ज्ञानं भवति अस्तु तर्हि तत्र विरमामाद्य सर्वेभ्यो नमः
आचार्य
वर्गे मिलामः वदतु भगिनि
स्पेस् स्पेस् कृते अन्तरिक्षम् इति शब्दः अस्ति वा?
अन्तरिक्षं हा समीचीनं भगिनि, तदेव अस्ति, समीचीनम् अस्ति, उत्तमम् उत्तमं भगिनि, धन्यवादः. अस्तु तर्हि नमस्कारः, अग्रिमवर्गे मिलामः.
नमस्कारः,
नमस्ते महोदय,
नमस्कारः, धन्यवादः,
धन्यवादः महोदय.